तृतीय स्कंध
अथत्र विंशोध्याय कर्दम और देवती का विवाह मैत्रीवाच पितृभ्याम प्रस्थित ऐसा द्विपते मिंगित को विदा नित्यम परिचरत प्रत्या भवानी व भवम प्रभु विश्रम्भेणात्म शौचेन गौरवेण दमेन च शुश्रूषया सहृदयन वाचा मधुरया च भो विसृज कामं दम्भं च द्वेषं लोभमघं मदम अप्रमद्योद्यता नित्यं तेजीयांसमतोषय सवै देवर्षि वर्जस्ताम मानवीं समनोव्रताम दैवाद्गरीय सपतुराशासानां हाशिष कालेन भूयसा क्षमां कर्षितां व्रतचर्यया प्रेम गदगदया वाचा पीडितः कृपया ब्रवीत कर्दम वाच तुष्टो हमद्य तव मानवी मानदायाः शुश्रूषया परमया परया च भक्त्या यो देहिनामयमतीव सुहृत् स्वदेहो नावेक्षितः समुचितः क्षपितुम् मदर्थे ये मे स्वधर्म निरतस्य तपः समाधि विद्यात्मजोग विजिता भगवत प्रसादः तानेव ते मदनुसेवनयावरुद्धान् दृष्टिम् प्रपश्य वितरामभयान् शोकान् अन्ये पुनर्भगवतो भ्रुव उद्बृजिम्ब विभ्रंसितार्थरचना किमुरु क्रमस्य सिद्धासि भुंक्ष विभुवा निज धर्म दोहान दिव्यान नरय दुरधिगान नृप विक्रियाभिः एवं ब्रुवाणमबलाखिल जोग माया विद्या विचक्षणमवेक्षगताधिरासीत् संप्रश्रय प्रणय बिह्वलया गिरेशद ब्रीडावलोक बिलसद हसिता देहुतिर्वाच राधम बत द्विजवृषै तदमोघ योग मायाधिपे त्वयि विभो तद्वयमि भर्तः जस्तेभ्यधायि समय सकृदंग संगो भूयाद् गरीयसि गुणः प्रसवः सतीनां तत्रेति कृत्यमुपशिक्ष यथोपदेशं जेनैः समे कर्षितो तिरिरंशयात्मा सिद्ध्येत ते कृतमनोभवधर्षिताया दीनस्तदिश भवनं सदृशं विचक्षव मैत्रेय उवाच प्रियाय प्रियमन्विच्छन् कर्दमो योगमास्थित विमानं कामकं छत्तस्तर्हे वा विरचीकरत् सर्वकाम दुःखं दिव्यं सर्वरत्न समन्वितं सर्वार्ध्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम् दिव्योपकरणोपेतं सर्वकाल सुखावहं पट्टिकाभिः पताकाभिर्विचित्राभिरलङ्कृतम् सर्गभिः विचित्रमाल्याभिर्मञ्जुसिञ्जत्सदङ्घ्रिभिः दुकुलक्षं कौशेयर्नानावस्त्रे विराजितम् उपर्युपरि विन्यस्त निलयेषु पृथक् पृथक् क्षिप्ते कसिप भूकान्तं पर्यङ्क व्यजनासने तत्र तत्र विनिक्षिप्त नानाशिल्पोपशोभितं महामरकतस्थल्या जुष्टं विद्रुम्बेद्भिः द्वासु विद्रुम्देहल्या भातं वज्रकपाटवत् शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्रुतं चक्षुष्मत्पद्मरागाग्रैर्वज्रभीतिषु निर्मितैः जुष्टं विचित्रवैतानैर्महार्है हेमतोरणैः हंसपारावत भ्रातैस्तत्र तत्र निकूजितम् कृत्रिमान् मन्यमाने स्वानधिरुह्याधिरुह्य च विहारस्थान विश्राम संवेश प्राङ्गणाजिरैः यथोपजोसंरचितैर्विस्मापनमिवात्मनहम् इद्दिगृहं तत्पश्यन्तीं नातिप्रीतेन चेतसा सर्वभूताशयाभिज्ञ प्रावोचत् कर्दम स्वयं निमज्यास्मिन् हृदयभिरु विमानमिदमारुह इदं शुक्लकृतं तीर्थम् आशिषां व्यापकमृणां सा तद्भर्तु समादाय वचः कुवलयत्क्षणा सरजं बिभ्रति वासु वेणीभूतांश्च मूर्धजान् अङ्गं च मलपङ्केन सञ्छन्नं सबलस्तनम् आवेश सरस्वत्या सरः शिवजलाशयम् शान्तः सरसि भेष्मस्था शतानि दशकन्यकाः सर्वः किशोरवयसो ददर्शोत्पलगन्धयः ताम् दृष्ट्वा सहसोत्थाय प्रोचु प्राञ्जलयः स्त्रियः वयं कर्म करिस्तुभ्यं साधि नः करवाम किम् स्नानेन तं महार्हेण स्नापयित्वा मनस्विन् दुकुले निर्मले नुत्ने ददुरस्यै च मानदः भूषणानि परार्ध्यानि वरीयांसि दिवन्ति च अन्नं सर्वगुणोपेतं पानं चैवामृतासवम् अथा दर्शे स्वमात्मानं सृग्विणं बिरजाम्बरं बिरजकृतस्वस्तैनं कन्याभिर्बहुमानितम् स्नातं कृतशिरस्नानं सर्वाभरणभूषितं निष्कग्रीवं बलैनं कूजत् काञ्चन नूपुरम् श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया हारेण च महारेण रुष्केन च भूषितम् सुदता सुभ्रुवः श्लक्षण स्निग्धापाङ्गेन चक्षुषा पद्मकोशस्पृधानीलैरलकैश्च लसन्मुखम् यदा सस्मार ऋषभम् ऋषीणाम् दयितम् पतिम् तत्र चास्ते सहस्त्रिभिर्जत्रास्ते स प्रजापति भर्तुः पुरस्तादात्मानं स्त्री सहस्रव्रतं तदा निशाम्य तद्योग्यतिं संशयं प्रत्यपद्यत सातां कृतमलस्नानां विभ्राजन्तीमपूर्ववत् आत्मनो बिभ्रतिं रूपं संवित रुचिरस्तनिं विद्याधरी सहस्रेण सेव्यमानं सुवाससं जातभावो विमानं तद् आरोहयदमित्रहं तस्मिन् लुप्तमहिमा प्रिययानुरक्तो विद्याधरीभिरुपचीर्ण वपुर्विमाने बभ्राज उत्कच्कुमुद्गणमानपिच्य ताराभिरावृतैवोडुपतिर्नभस्थः तेनाष्टलोकपविहारकुलाचलेन्द्र द्रोणी स्वनङ्ग सखमारुत सौभगासु सिद्धैर्नुतो द्विधुनिपात् शिवः स्वनासु रेमे चिरं धनदवल्लनाबरूथि वैश्रम्भकेसुरसने नन्दने पुष्पभद्रके मानसे चैत्ररथे च स रेमे रामया रतः भ्राजिष्णुना विमानेन कामगेन महीयसा वैमानिकान्नत्यसेत चरणलोकाञ्जथानिलः किं दुरापादनं तेषां पुंसामुद्दाम चेतसां जैराश्रितस्तीर्थपदश्चरणो व्यसनात्ययः प्रेक्षयित्वा भुवो गोलं पत्नी जावन् स्वसंस्थया बहुवाश्चर्यं महाजोगी स्वाश्रमाय निवर्तत विभज्य नवधात्मानं मानवीं श्रुतत्सुकां रामां निरमयन् रेमे वर्षपूगान् मुहूर्तवत् तस्मिन् विमान उत्कृष्टां सज्जां रतिकरीं श्रिता न चाबुध्यत तं कालं पत्यापिच्येन संगताम् एवं योगानुभावेन दम्पत्यो रममाणयोः शतं व्यतेयुः शरद कामलालस्योर्मनाक् तस्यामाधत्त रेतस्तां भावयनात्मनात्मविद् नोधा विधाय रूपं स्वं सर्वसंकल्पविद्विभुः अतः सा सुस्वे सद्यो देवहूतिः स्त्रियः प्रजाः सर्वास्ताश्चारु सर्वाङ्गो लोहितत्पलगन्धयः पतिं सा प्रव्रजिष्यन्तं तदा लक्ष्यो सति सति स्मयमाना विक्लवेन हृदयेन विदूयता लिखन्तधो मुखी भूमिं पदा नखमणि श्रेया उवाच ललितां वाचं निरुद्ध्याश्रुकलां सनहे देहूतिर्वाच सर्वं तद्भगवान् मह्यम् उपोवाह प्रतिश्रुतम् अथापि मे प्रपन्नाया अभयं दातुमर्हसि ब्रह्मं दुहितृभिस्तुभ्यं विमृग्याः पतयः समः कश्चिन् श्यामे विशोकाय त्वयि प्रव्रजिते वनम् एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनहम् इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वयि मे कृतः अजानन्त्या परं भावं तथाप्यस्तु अभयाय मे सङ्गो यः संसृतेर्हेतुरसत्सु विहितो धिया स एव साधुषु कृतो निःसङ्गत्वाय कल्पते नेहजत्कर्मधर्माय न विरागाय कल्पते न तीर्थपदसेवायै जीवनपि मृतो हि सः साहं भगवतो नूनं वञ्चिता माया दृढम् जत्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात् इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितां तृतीयस्कन्धे कापिलोपाख्याने त्रयोविंशोऽध्यायः।